सर्वेभ्यो नमः, स्वागतं। प्रथमतया वयं प्रार्थनां वदामः। वृन्दा भगिनी,
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। श्रीगुरुभ्यो नमः। हरि ओम्।
समीचीनं भगिनि, धन्यवादः। अस्तु, गतवर्गे वयं किञ्चित् द्वितीयविभक्तिविषये पठितवन्तः, अद्यापि तस्य विषये एव पठामः। आरम्भे सर्वनामशब्दानां द्वितीयविभक्ति प्रयोगस्य विषये पठामः। अस्तु, लक्ष्मीभगिनी, भवती अत्र पठतु। तत्र सः
तं तौ तौ ते तान्।
अत्र किमस्ति, तत्र प्रथमा विभक्तिः अस्ति सः, द्वितीयाविभक्तिः अस्ति तं। तत्र तौ इति प्रथमाविभक्ति तौ, सो तत्र अस्ति सः, तौ, ते, तं, तौ, तान् इति भवति। भवती एव द्वितीयं वदतु।
सा स्त्रीलिङ्ग, सा प्रथमाविभक्ति, सा तां, ते, ते, ताः, ताः।
समीचीनं, तत्र सा, ते, ताः, तां, ते, ताः इति भवति।
एषः, एतम्, एतौ, एतौ, एते, एता।
समीचीनम्। इदानीं प्रिया भगिनी, भवती पठतु।
प्रथमाविभक्ति एषा, एते, एताः। द्वितीयाविभक्ति एताम्, एते, एताः। अहम्, आवां, वयम्। माम्, आवाम्, सेम् थिङ्ग्, आवां, माम्, आवाम्, अस्मान्।
आम्, समीचीनम्। अनन्तरं भवान् अपि करोतु।
भवान्, भवन्तौ, भवन्तः। भवन्तं, भवन्तौ, भवतः।
समीचीनम्। अस्तु, इदानीं वृन्दा भगिनी, भवती भवती अपि त्वं करोतु।
भवती, भवत्यौ, भवत्यः प्रथमाविभक्ति, द्वितीया विभक्ति भवतीं, भवत्यौ, भवतिः।
समीचीनम्।
प्रथमा विभक्ति त्वं, युवां, युयं। द्वितीया विभक्ति त्वां, युवां, युष्मान्।
समीचीनम्। अस्तु, इदानीम् अग्रे गच्छामः। अत्र अस्तु, लक्ष्मीभगिनी, भवती पठतु।
प्रथमाविभक्ति तत्, ते, तानि। द्वितीयविभक्ति तत्, ते, तानि। एतत्, एते, एतानि प्रथमाविभक्ति। एतत्, एते, एतानि द्वितीयविभक्ति। कः, कः, कौ, के प्रथमाविभक्ति। कं, के, कं, कौ, कान् द्वितीयविभक्ति। चेञ्जस् हियर्।
अस्तु, अनन्तरं प्रिया भगिनी भवती पठतु.
किं के कानि द्वितीया किं के कानि सर्वः सर्वौ सर्वे द्वितीया सर्वं सर्वौ सर्वान्
अस्तु. इदानीं बृन्दा भगिनी भवती पूरयतु.
प्रथमा विभक्ति सर्वा सर्वे सर्वाः. द्वितीया विभक्ति सर्वां सर्वे सर्वाः. सर्वं सर्वे सर्वाणि. सर्वं सर्वे सर्वाणि.
समीचीनं भगिनि. अस्तु इदानीं तत्र वाक्यानि दत्तानि सन्ति. पठामः. अस्तु. पितामहः तम् आह्वयति इति अस्ति. अत्र कर्मपदं किम्?
तम्
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 अस्तु. इदानीं तम् इति कर्मपदमस्ति. तस्य प्रथमाविभक्तिरूपं किं तम् इत्यस्य?
सः.
अस्तु. इदानीं द्वितीयं वाक्यं धर्मराजः तं वदति. अत्र कर्मपदमस्ति पुनः तम् एव. अनन्तरं हिडिम्बा कं मारयति. अत्र प्रश्नः अस्ति. अत्र कर्मपदं किम्?
कम्
कम् इति कर्मपदमस्ति. अस्तु. धर्मः सः मां वदति इति अस्ति. माम् इति कर्मपदमस्ति. तस्य प्रथमविभक्तिरूपं किम्?
कर्मविभक्ति
अहम् अनन्तरं वदति. एषा एतौ जानाति. कर्मपदम्
एतौ
कर्मपदम्
प्रथमाविभक्ति एव एतौ भगिनि.
एषः इस् द प्रथमाविभक्ति. एषः एतौ एते.
अत्र द्वितीया विभक्ति हि अस्ति एतौ.
एतौ
सः तौ ते.
एषः एतौ एते इति भवति.
हा भगिनि.
अस्तु. अनन्तरं कृपया आवां कथयतु. समीचीनम्. इदानीं कृष्णः युष्मान् रक्षतु.
युष्मान् बहुवचनं.
युष्मान् किं भगिनि?
त्वं युवां यूयं. त्वां युवां युष्मान् इति भवति.
भगिनी, वाट् वुड् बि द ट्रान्स्लेशन् आफ् दिस् सेण्टेन्स्? कृष्णः युष्मान् रक्षतु विल् बि कृष्ण सेव्स् आल्
All of you.
all of you
all,
will
take care all of you.
वृद्धः तान् शवान् खादति. अत्र
तान् एण्ड् शवान्
आम् तान् शवान्
तान् शवान्
खादति. इदानीं खादति इत्यस्य रूपाणि वदतु लट् लकारे.
लट् लक् खादति खादति खादतः खादसि खादतः खादतः खादामि खादावः खादामः.
समीचीनं अस्तु समीचीनम्. इदानीम् अनन्तरं धर्मः अस्मान् रक्षति.
वयम् अस्मान्
वयम् अस्मान् इति भवति. रक्षति इत्यस्य रूपाणि वदतु.
रक्षति रक्षत
रक्षति रक्षति रक्ष
रक्षसि रक्षतः रक्षत रक्षामि रक्षावः रक्षामः.
समीचीनम् अस्तु. अनन्तरं अहं तानि जन्मानि जानामि.
तानि
जन्मानि
जन्मानि
समीचीनम्. अनन्तरम् आवां युवां सम्यक् जानीवः. किमस्ति युवामिति प्रथमाविभक्तिः अस्ति युवां, द्वितीयाविभक्तिः अस्ति युवां.
Bhagini, can you show the forms again, Bhagini, for Yuvam? It's a little confusing.
Yuvam, Pradama, Vibhakti, Yuvam, Tritiya.
Tvam, Yuvam,
Yuvam.
Tvam, Yuvam. Oh, same thing, okay. Tvam also is the same thing for Tritiya, okay.
For, I think, the whole...
This is Karmani Prayoga sentence, Bhagini, because it has the...
No, this is not Karmani Prayoga.
Oh.
What is Karmani Prayoga? What does that mean, Bhagini?
Passive voice.
Oh.
So, we'll see that later on. Right now, we're just sticking to the regular...
So, it has two... Avam, Yuvam. So Avam would be the Pradama, Yuvam would be the Dvitiya.
Right.
So Avam is the Kartrupadam,
Yuvam
is the Karmapadam, and Janivaha is the
Kriyapadam. Janivaha.
Bhagini, sorry, Janivaha will be what... kriya it's a pratyaya, right?
No.
Why not janitah, Bhagini? Why jani?
Because avam is dvivachana.
Jani vaha. Okay. Jani vaha, jani maha. Okay.
Janami, jani vaha,
jani vaha, jani maha. Okay.
oh oh right right okay okay
has to occur the same way.
Ha right okay yeah. Sorry Bhagini, it's a little confusing.
No problem Bhagini. Manavah tam siddhim vindati.
Tam
tam tam and siddhim siddhim also
yeah
tam siddhim vindati.
What does vindati mean Bhagini?
I think last class we had something said acquire, attain.
Yeah, acquire. Oh. I think we had a sentence in that. We'll see. Anantaram sena etam anu
anusarati.
Anusarati.
Etam. It's a bahuvachanam for
yeah.
Etam, etam, etam.
Etam.
Manavah tam siddhim vindati. What does that mean Bhagini? What does it translate to? Tam is for sa Bhagini. Swadhitvitya is tam, na Bhagini?
Dvivachanam, tam, dvivachanam. No, tam pradhama, sa, tam, yeah.
Tam is dvivachanam.
Manavaha, pit.
Not dvivachanam actually. Dvitiya vibhakti.
Dvitiya.
Dvitiya vibhakti, ekavachanam.
Ekavachanam.
But Bhagini, tam is used for sa, and here we are saying manavah tam siddhim vindanti.
Okay, manavah lo, siddhim means acquire vairagya or whatever, some that kind of thing. Siddhim, I'm thinking.
So Bhagini, we can use manavah tam siddhim vindati. Why tam?
I'm not sure, Bhagini. I'll look into it and let you know.
Is Manavaha Bhagavan Vachanam Bhagini?
No, Eka Vachanam.
Manavaha Eka Vachanam.
Eka Vachanam.
But is that Pullingam or Strilingam Bhagini?
Manavaha Pullingam. Manavaha.
Pullingam.
Okay.
Pullingam Eka Vachanam.
But it kind of means both. The meaning is for male and female.
Mm-hmm.
But
because tam there, that is why it could be Sri Lingam, I guess.
Does it have to be? It is more like giving siddhim to.
Could
to.
Yeah.
They gave siddhim to someone else.
Yeah.
Vindati is acquired, no, Bhagini? Then how can it?
Okay.
It can't be give.
They acquire siddhi. Manavaha acquires siddhi. That's all I could understand. So I don't know.
Yeah, it's okay, Bhagini. Maybe you can check and let us know.
Yeah. Also, Bhagini, I don't know the meaning of this sentence, the eighth sentence also. The word is new, Grudraha.
Tan, Shavan, Khadati. They eat the.
It's like a monster.
Grudraha is monster, is it?
It's a dead body? I'm not sure.
Shavan is
Shavan.
Dead bodies.
Yeah, dead body. They Grudraha eat the dead bodies.
the monsters. Okay.
Bhagini, I think Rita is the gid, the so-called vulture.
Oh, right.
Vulture? Yeah. Some bird. Some bird. Right?
So, what does Tan Shavan mean here, Bhagini?
It means those dead bodies.
Oh, those. Yes.
That, yeah. Dead bodies.
Anandaram. Sena etan anusarati.
Etan anusarati. Sena etan anusarati. They follow. Sena.
Followed them.
Yeah. Etan.
Sarve etam pashyantu.
Sarve etam.
Etam.
Pashyantu karma padam. Etam.
Etam is karma padam.
Etam.
Ayatihi kam gatim gacchati.
Ayatihi
kam gatim.
Ayati means, I don't know. Ayati.
I think traveling, Bhagini, travel or something like that.
Arrival.
Arrival.
What does it mean, Bhagini?
If you.
Kam gatim gachati means to. Where are you going? Something like that.
Where are you going to go? I guess. Kam gatim. Question mark, right? So Ayati.
I thought he's asking, where are you going so fast?
Ayati.
Because gatim is movement.
Oh, okay.
And Ayatihi is arrival. So where are you going so fast?
So fast, Bhagini?
Oh. Gatim is fast, right?
Okay.
Anantaram. Kaha mama vibhutim janati.
Mama.
Vibhutim.
Vibhutim. Mama vibhutim.
Mama is my.
Mama is not... Ekavachanam mama.
Aham iti asti.
Yeah. Aham. Mama. Oh.
Vibhutim janati. What is vibhutim, Bhagini?
Power.
Oh, who knows my power?
How much power I have. Like that.
Okay.
Anantaram.
Bhagina, it is not the tilak which we use, the white tilak?
No. It also has that meaning, but not here.
Thank you.
Anantaram. Yato daharanam rikthasthanani puriyata. Saha ityasya dvitiya tam. Saha ityasya dvitiya?
Tam.
Tam.
Kau ityasya dvitiya?
Kan.
Tan ityasya dvitiya?
Tani.
Tani ityasya?
Tani.
Tani. Tani eva. Bhagini.
Aham ityasya?
Aham mam.
Bhavatyah ityasya?
Bhavati.
Bhavati.
Bhavati. Bhavati.
Bhavatihi.
Bhavatihi.
Oh, plural. Bhavachanam. Bhavatihi.
Yuvam.
Yushman.
No. Yushman.
Yuvam eva.
Yuvam.
Yuvam.
Te strilingam ityasya?
Te.
Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te. Te
ओके
त्वम् इत्यस्य
त्वम् इत्युक्ते त्वां
त्वाम् एषा इत्यस्य
एतान्
युष्मान् ते पुल्लिङ्गस्य
ते
तान्
तान्
तान् तान् तान्
समीचीनम् अस्तु इदानीम् एतमभ्यासं कुर्मः अस्तु प्रथमम् अस्ति युवकः भवन्तं प्रेषयति द्वितीयं माता भवति इति अस्ति तस्य द्वितीया भक्ति भवतीं आह्वयति अनन्तरं बालकाः तानि इति अस्ति पुस्तकानि क्रीणन्ति
तानि एव
तानि
बालकः बालकाः तानि पुस्तकानि क्रीणन्ति कृपया
सर्वाणि फलानि खादन्ति
सर्वाणि फलानि खादन्ति अनन्तरं पञ्चमम् अहं
भवन्तौ
भवन्तं
भवन्त न विस्मरामि एषः
का अवदत् अवदत्
अनन्तरं कवयः
कान् भगिनि
तत्र के इति अस्ति पुल्लिङ्गः अनन्तरं देवः
वयं रक्षति
अस्मान्
अनन्तरं
सः सर्वः गृहं सर्वं
सर्वं
खादिष्यति
गुडं खादिष्यति
गुडं सारी गुडं खादिष्यति
अनन्तरं भवान्
सर्वाः
चयनं किमस्ति सर्वा सर्व सर्वां सर्वां
सर्वां
पुल्लिङ्गं स्त्रीलिङ्गं वा भगिनि सर्वः सर्वा
तत्र सर्वः सर्वौ सर्वे इति पुल्लिङ्गे भवति स्त्रीलिङ्गे सर्वा सर्वे सर्वाः
ओके बै
I will send a table for Dvitiya Bhakti so that you can study those for this. Astu.
Astu.
अस्तु अनन्तरं भवान् सर्वां व्यवस्थां करोतु. कुक्कुरः एते स्त्रीलिङ्गे किं भवति?
एतां
एतानि
एतान् एतान्
द्विवचनं
एते एव भवति. Remember, if it is dvivachanam, it stays the same.
Oh, okay.
So, if you see in the table, these are all the same. Ite, ite, avam, avam, bhavanto, bhavanto, bhavatyo, bhavatyo, yuvam, yuvam.
Oh, okay.
Ite, ite, kau, kau, ke, 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 sarvo, sarvo, sarve, 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 sarve.
Okay, that is good to know.
So, when you memorize this, just remember sahataute tam, what should I say? The same dvivachanam as prathama vibhakti. So you have to like give these small hints for yourself, because or else if you just memorize for one, you are just memorizing a pattern, not the vibhakti of the word. If you try to memorize the vibhakti of the word, then you won't be able to do it for any other words. So if you do it just for the pattern, then you can apply that pattern to all the words. Except there are exceptions, but mostly all the words, you will know the vibhakti.
Right.
So you should remember, Ramaha, Ramo, Ramaha, Ramam, Ramau, Raman. For Akaranta, you end in An. Ramena,
Ramabhyam.
So, Dvivachanam for Tritiya, Chaturthi, Panchami is the same.
And
then, Bahuvachanam for Chaturthi and Panchami is the same.
So Bhagini, over here, why did you say Kukuraha, why did we take it as a... What did we take Kukuraha as a Strilingam? Yeah.
We didn't take Kukuraha as Strilingam. Sir, it's Pullingam.
The Karma Padam we said as Strilingam, Bhagini.
The Karma Padam is Strilingam because it's Rotika. Strilinga Padam, Rotika.
Roti, oh, it's written Roti K here, right?
That's Dvivachanam.
Okay.
अनन्तरं जनकः
वाट् डस् इट् मीन् भगिनि इट्स् नाट् ईटिङ्ग्
अखादत् इट् एट् आल् द इट् एल् बोत् द रोटिका
वै अ उपसर्गः भगिनि
बिकास् इट् इस् इन् लङ् लकारः
Okay, so it's just past tense. Okay.
Yeah, it already ate, that is why.
You can also say Kaditavan. I think that is simpler, but...
Okay. Dhanyavada, Pagni.
Anantaram. Janakaha.
Etam Palayati.
Etau.
Etau Palayati. Right now we said, right?
Dvivachanam.
Dvivachanam, it is the same.
Okay.
Yuyam.
Yuyam.
Etan.
Etaha. 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 Etaha.
एताः
एव
एताः स्त्रीलिङ्गं भगिनि सो इट्स् ओके
वयं
पृच्छति
समीचीनम् अस्ति अत्र प्रश्नाः सन्ति वा अस्तु किञ्चित् विभक्तेः अभ्यासं कुर्मः अस्तु प्रथमतया देवालयः इति कुर्मः तत्र बृन्दा भगिनी न प्रिया भगिनी भवती प्रथमा द्वितीया करोतु नागेन्द्रमहोदय भवान् तृतीया चतुर्थी करोतु लक्ष्मी भगिनी भवती पञ्चमी षष्ठी करोतु बृन्दा भगिनी भवती सप्तमी सम्बोधनम् देवालयः इति अस्ति
देवालयः देवालयौ देवालयाः देवालयं देवालयौ देवालयान्
समीचीनं नागेन्द्रमहोदय
तृतीय देवालयेन देवालयाभ्यां देवालयेषु नो देवालयै
देवालयेभ्यः
देवालयैः भगिनि
तृतीय बहुवचनं देवालयैः
देवालयैः
देवालयाय देवालय देवालयाभ्यां देवालयेभ्यः
देवालयाभ्यां देवालयेभ्यः देवालयस्य देवालययोः देवालयानां
देवालये देवालयोः देवालयेषु देवालयः देवालयौ देवालयाः
देवालयायोः राइट भगिनि
आम्
या
अस्तु इदानीं बृन्दा भगिनी भवती उक्तवती वा
Yes, Pavani.
Could you say it again because I couldn't hear you?
Okay. Devalaye, Devalayoho, Devalayeshu, Devalaya, Devalayau, Devalayaha.
Irani, I can hear you. Irani, अञ्जलिः कुर्मः. अञ्जनिः इकारान्तपुल्लिङ्गः.
अञ्जलिः अञ्जलिः अञ्जलिम् अञ्जलि अञ्जलीन्.
समीचीनम्.
अञ्जलीन् हरियो भगिनी, हरिन् हरियो
हरिणा हरिभ्यां
हरिणा हरिभ्यां हरिः. चतुर्थी हरये. अञ्जलिना
अञ्जलिनाभ्यां. And then bahuvachanam of hari, harin, haribhyam,
haribhi,
hari, haribhi, correct. So anjali bhihi. And then chaturthi, I forgot bhagni, chaturthi of harin,
anjaliye, haraye,
haraye, anjaliye, anjali. अञ्जलि अञ्जलिभ्याम्
अञ्जलेः अञ्जलिभ्याम् अञ्जलिभ्यः अञ्जलेः अञ्जलयोः अञ्जलीनाम्
अञ्जलौ अञ्जलयोः अञ्जलिषु अञ्जलेः अञ्जले अञ्जलि अञ्जलयः.
समीचीनं. अनन्तरं किं कुर्मः? अज आम् आकारान्तस्त्रीलिङ्गशब्दः.
अजाः.
What is the word, Bhagini? Ajam? Aja? Lataya. Lataya, Latabhyam, Latadihi. Correct, Bhagini?
Yes, Mahodaya.
So, Ajaya, Ajabhyam, Ajabhihi, and then Chaturthi. Latayo, Latabhyam.
Latayai.
Latayai.
Sorry, but Ajayai, Ajabhyam, Ajabhyam.
अजायाः अजाभ्याम् अजाभ्यः अजायाः अजयोः अजानाम्
अजायाम् अजयोः अजासु अजे अजे अजाः.
Mm.
Bhagini, I need to drop out, Bhagini. I will join next time.
चिन्ता मास्तु महोदय. इदानीं लक्ष्मीभगिनी भवती एव करोतु.
ओके ओके भगिनि.
वदतु भगिनि.
वाट् वर्ड् भगिनि? फिनिश्ड् अजय.
एतत् कथा.
हा?
कथा.
कथा स्त्रीलिङ्ग. स्त्रीलिङ्ग. कथा.
कथा कथे कथाः कथां कथे कथाः
कथया कथाभ्यां कतिभिः कथायै कथाभ्यां कथाभ्यः कथायाः कथाभ्यां कथाभ्यः कथायाः कथयोः कथानां कथानां कथानां
कथायां कथयोः कथासु कथे कथे कथाः.
समीचीनं भगिनि. इदानीं माता. माता.
माता. मातरौ. मातरः. मातरं. मातरौ.
मात्रा मातृभ्यां मातृभिः मात्रे मातृभ्यां मातृभ्यः मातुः मातृभ्यां मातृभ्यः मातुः मात्रोः
You're awesome, Bhagini.
Bhagini, I'm looking the thing. I can't. I can't have the idea.
Okay. That's okay.
Matari, Mataroho, Matrushu. Mataha, Matarau, Mataraha.
I think you guys are memorized. I'm not.
I haven't memorized this, the Strilinga versions of all this. Only managed up to the Pullinga.
If we keep practicing, you will get it, Bhagini.
Right, right. That is what I'm hoping, Bhagini. This is good practice.
Anantaram. Pita shabda. Pulling, we're back to pulling aha, pita.
Pita, pitarau, pitaraha, pitaram, pitarau, pitrun.
Pita? Okay. Pitra, pitrubhyam, pitrubhihi, pitre, pitrubhyam, pitrubhyah, pituhu, pitrubhyam, pitrubhyah, pituhu, pitroho, pitrunam.
Pitari, pitroho, pitrushu, pitaha, pitrau, pitara, pitaraha.
समीचीनम्. अनन्तरं ऋषिः
करान्त पुल्लिङ्ग स्त्रीलिङ्ग
ऋषिः ऋषि ऋषयः ऋषीन् ऋषि ऋषीन्
ऋषिणा ऋषिभ्यां ऋषिभिः ऋषये ऋषिभ्यां ऋषिभ्यः ऋषे ऋषिभ्यां ऋषि 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 ऋषे ऋषिभ्यां ऋषिभ्यः पञ्चमे षष्ठी ऋषेः ऋष्योः ऋषीणा षष्ठी
ऋषौ ऋषयोः ऋषिषु ऋषे ऋषि ऋषयः
समीचीनम् अस्तु इदानीं शत्रुः
शत्रुः शत्रु शत्रवः शत्रुं शत्रु शत्रून्
समीचीनम्
शत्रुणा शत्रुभ्यां शत्रुभिः शत्रवे शत्रुभ्यां शत्रुभ्यः शत्रोः शत्रुभ्यां शत्रुभ्यः शत्रोः शत्रव्योः शत्रुणां शत्रवोः षष्ठी
this is like kartu bhagini
is it like a shishu or ukaranta pullinga
ukaranta pullinga
yeah
okay shatrav shatruvoh shatrushu shatru shatru shatruvah
samichin asta प्रश्नाः सन्ति वा अस्तु न सन्ति चेत् अत्र स्थगयामः प्रिया भगिनी भवती प्रार्थना शान्तिमन्त्रं वदति वा
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखवाक् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखवाक् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः
धन्यवादः भगिनी नमस्कारः.